अथ एकोनविंशः पाठः। संस्कृतभाषा ब्राह्मणनृपतिमन्त्रिभिः प्रयोक्तव्या। सा भाषा हि देवासुरगन्धर्वसिद्धैरवगम्यते, तस्मात् सा देववागिति विद्वद्भिरुच्यते। पूर्वर्षयोऽपि जितेन्द्रिया महात्मानश्च बहुस्तोत्राणि बहुसूत्राणि च तद्भाषाविरचिता न्यूचुः। अस्मत्काले तु कलियुगेत्र सा स्वल्पमतिभिः पुरुषैर्विस्मृता, यद्यपि तत्सत्यमेव सुबुद्धयस्तथापि तां जानन्ति। प्रविद्यालयेषु हि शिष्याः केचिद्विद्यन्ते, ये महाविज्ञानेभ्य आचार्येभ्यो अधीयन्ति।